पृष्ठ संख्या एक। स्वप्नवासो दत्तम सटिप्पण कमलेश्वरी संस्कृत हिंदी व्याख्योपेतम। प्रथमो अंकः नाद्यन्ते ततः प्रविशति सूत्रधारः। सूत्रधारः उदयनबिन्दुसवर्णावासो दत्ताबलौ बलस्य त्वां पद्मावतीर्णपूर्णौ वसन्तक्रमौ भुजौ पाताम्। नान्द्यन्ते नाटकमङ्गलाचरणान्ते सूत्रधारः प्रधाननटः। अन्वयः उदयन वेन्दुसवर्णौ आसौ दत्ताबलौ पद्मावतीर्णपूर्णौ वसन्तक्रमौ बलस्य भुजौ त्वां पाताम्। व्याकरण उदयनवेन्दुसवर्णौ उदीयमाननूतनचन्द्रसदृशवर्णौ आसौ दत्ताबलौ मद्यार्पितसामर्थ्याभावौ मद्यपाननिर्बलाविति भावः। पद्मावतीर्णपूर्णौ कमलावतरणसम्पन्नौ कमलसदृशसुकुमाराविति भावः। वसन्तक्रमौ मधुमासवत्कमनीयौ बलस्य बलरामस्य भुजौ बाहू त्वां युष्मान्सभ्यानित्याशयः। पातां रक्षतां पद्ये अस्मिन् पदविन्यासचातुर्येण उदयनवासवदत्ता पद्मावतीवसन्तकानां प्रधानपात्राणां सूचनान्मुद्रालङ्कारः। तलक्षणं हि सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः इति आर्याछन्दः। टिप्पणी नवश्वासौ इन्दुः कर्मधारयसमास तेन समानो वर्णो ययोस्तौ बहुव्रीहिसमास उदयनवेन्दुसवर्णौ आसवेन दत्तं तृतीया तत्पुरुष बलस्य अभावः अबलम् अव्ययं विभक्ति त्यादीना अव्ययीभावसमासः। आसौ दत्तम् अबलं ययोस्तौ बहुव्रीहिसमास आसौ दत्ताबलौः। अत्रि प्लवनसन्तरणयोः नपुंसके भावेक्तः इत्यनेन क्तः अवतीर्णं पद्मायाः अवतीर्णं षष्ठी तत्पुरुष तेन पूर्णौ। तृतीया तत्पुरुष पद्मावतीर्णपूर्णौ कमुकान्तौ धातोः नमिकम्पिस्म्यजसकमहिं सदीर्पोः रः इति सूत्रेण रप् प्रत्यये कृते कम्र इति वसन्त इव कम्रौः उपमानपूर्वपदकर्मधारयसमासः। वसन्तक्रमौः पा रक्षणे लोट्लकार पातम्। नांदी के बाद सूत्रधार का प्रवेश। सूत्रधार उदयकालिक चंद्रमा के समान वर्ण वाली मद्यपान से निर्बल लक्ष्मी अथवा कमल के प्राकाट्य से समृद्ध वसंत ऋतु के सदृश सुंदर बलराम की भुजाएं आपकी रक्षा करें। पृष्ठ संख्या दो। एवमार्य मिश्रान विज्ञापयामि अये किन्नु खलु मयि विज्ञापन व्यग्रे शब्द इव श्रूयते अंग पश्यामि नेपथ्ये उत्सरः उत्सरः अय्या उत्सरः उत्सर्तोत्सर्तार्याः उत्सरत् सूत्रधारः भवतु विज्ञातम्। भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः धृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः। निष्क्रान्तः स्थापना प्रविश्य भटौ उत्सरः उत्सरः अय्या उत्सरः उत्सरतो उत्सरतार्याः उत्सरत् ततः प्रविशति परिव्राजकवेषो यौगन्धरायण अवन्तिकावेषधारिणी वासवदत्ता च। आर्यमिश्रान् माननीय सज्जनान् महा कुलकुलीनार्यसभ्यसज्जनसाधवः इत्यमरः मिश्रशब्दो माननीयताद्योतकः विज्ञापयामि निवेदयामि। अये आश्चर्य अभिव्यञ्जकम् अव्ययम् इदं विज्ञापनव्यग्रे निवेदनोत्कण्ठिते सति। अङ्गः भो अङ्गशब्दस्य पुनरित्यप्यर्थः तद्यथा पुनरर्थेरङ्गः इत्यमरः। उत्सरत् अपसरत् अस्मात्थानादिति भावः। अन्वयः मगधराजस्य स्निग्धैः कन्यानुगामिभिः भृत्यैः सर्वं तपोवन गतः जनः धृष्टम् उत्सार्यते। व्याकरण मगधराजस्य मगधाधिपत्स्य दर्शकस्येति भावः। स्निग्धैः स्नेहयुक्तैः कन्यानुगामिभिः कन्यां राजकुमारीं पद्मावतीम् अनुगच्छन्ति अनुसरन्ति तच्छीलमेषामिति कन्यानुगामिनः। तैः भृत्यैः सेवकैः सर्वः सकलः तपोवनगतः आश्रमवासी जनः लोकः धृष्टं बलात् कठोरतया यथा स्यात्तथेति भावः। उत्सार्यते अपसार्यते दूरीक्रियते इत्यर्थः। अनुष्टुब् वृत्तम्। टिप्पणी आर्याश्च ते मिश्रास्तान् कर्मधारय आर्यमिश्रान् विज्ञापने व्यग्रः तस्मिन् विज्ञापनव्यग्रे विधन ज्ञाधन णिचधन लटधन मिप् विज्ञापयामि। श्रुधन कर्मणि लिट् श्रूयते उतधन श्रीधन लोटधन थ उत्सरत विधन ज्ञाधन क्त विज्ञातम्। मगधानां राजा इति मगधराजः षष्ठी तत्पुरुष राजाः सखिभ्यश्च इति समासान्तश्च प्रत्ययः तस्य मगधराजस्य। स्नेहधन क्तधनभिः स्निग्धैः कन्योपपदपूर्वकाद् अनु इत्युपसर्गपूर्वकाद् गमधातो सुप्यजातौः ऋणिस्ताक्षील्ये इत्यनेन ऋणिः। उपपदं तिङ्ग इत्युपदसमासः तृतीया बहुवचनेः कन्यानुगामिभिः। तपसः वनं षष्ठी तत्पुरुष तपोवनं गतः द्वितीया श्रीतातिते इत्यादीनां द्वितीया तत्पुरुष समासः तपोवन गतः। घृष धनक्त धृष्टम् उतधन श्री धन ऋच धन कर्मणि लट उत्सार्यते। माननीय सज्जनों को मैं यह बताता हूँ। अरे क्या मेरे निवेदन कर्म में व्यस्त होते ही यह कैसी आवाज़ सुनाई पड़ने लगी। अच्छा देखता हूँ। नेपथ्य में हटो सज्जनों हटो सूत्रधार। अच्छा समझ गया। मगधराज के स्नेही एवं राजकुमारी का अनुगमन करने वाले सेवकों द्वारा सभी तपोवनवासी व्यक्ति धृष्टतापूर्वक हटाए जा रहे हैं। सूत्रधार का प्रस्थान स्थापना समाप्त प्रवेश करके दो रक्षक हटो हटो सज्जनों हटो सन्यासी वेशधारी यौगंधरायण तथा अवंतिका वेश में वासवदत्ता का प्रवेश